अथ द्वितीयः पादः साधनपादः तपः स्व अध्याय ईश्वर प्रणिधानानि क्रिया योगः समाधि भावना अर्थः क्लेश तनु करण अर्थः च अविद्या अस्मिता राग द्वेष अभिनिवेशाः क्लेशाः अविद्या क्षेत्रम् उत्तरेषां प्रसुप्ता तनु विच्छिन्न उदाराणाम् अनित्य अशुचि दुःख अनात्मसु नित्या शुचि सुख आत्मा ख्यातिः अविद्या दृक् दर्शन शक्त्योः एक आत्मता इव अस्मिता सुख अनुशयी रागः दुःख अनुशयी द्वेषः स्व रस वाही विदुषः अपि तथा आरूढः अभिनिवेशः ते प्रतिप्रसव हेयाः सूक्ष्माः ध्यान हेयाः तत् वृत्तयः क्लेश मूलः कर्म आशयः दृष्ट अदृष्ट जन्म वेदनीयः सति मूले तत् विपाकः जाति आयुः भोगाः ते ह्लाद परिताप फलाः पुण्य अपुण्य हेतुत्वात् परिणाम ताप संस्कार दुःखैः गुण वृत्ति विरोधात् च दुःखम् एव सर्वं विवेकिनः हेयं दुःखम् अनागतं द्रष्टृ दृश्ययोः संयोगः हेया हेतुः प्रकाश क्रिया स्थिति शीलं भूत इन्द्रिया आत्मकं भोगा अपवर्गा अर्थं दृश्यं विशेष अविशेष लिंगा मात्रा अलिंगानि गुण पर्वाणी द्रष्टा दृशी मात्रः शुद्धः अपि प्रत्यय अनुपश्यः तत् अर्थः एव दृश्यस्य आत्मा कृत अर्थं प्रति नष्टं अपि अनष्टं तत् अन्य साधारणत्वात् स्व स्वामी शक्त्योः स्वरूपा उपलब्धि हेतुः संयोगः तस्य हेतुः अविद्या तत् अभावात् संयोगा अभावः हानं तत् दृशेः कैवल्यं विवेक ख्यातिः अविप्लवा हान उपायः तस्य सप्तधा प्रांत भूमिः प्रज्ञा योगा अंगा अनुष्ठानात् अशुद्धि क्षये ज्ञान दीप्तिः आविवेक ख्यातेः यम नियम आसन प्राण आयाम प्रत्याहार धारणा ध्यान समाधयः अष्टौ अंगानि अहिंसा सत्य अस्तेय ब्रह्मचर्य अपरिग्रहाः यमाः जाति देश काल समय अनवच्छिन्नाः सार्वभौमाः महाव्रतं शौच संतोष तपः स्व अध्याय ईश्वर प्रणिधानानि नियमाः वितर्क बाधने प्रतिपक्ष भावनं वितर्काः हिंसादयः कृत कारित अनुमोदिताः लोभ क्रोध मोह पूर्वकाः मृदु मध्य अधिमात्राः दुःख अज्ञान अनंत फलाः इति प्रतिपक्ष भावनम् अहिंसा प्रतिष्ठायां तत् सन्निधौ वैरा त्यागः सत्य प्रतिष्ठायां क्रिया फला आश्रयत्वं अस्तेया प्रतिष्ठायां सर्वा रत्ना उपस्थानम् ब्रह्मचर्य प्रतिष्ठायां वीर्या लाभः अपरिग्रह स्थैर्ये जन्मा कथंता संबोधः शौचात् स्वांग जुगुप्सा परैहि असंसर्गः सत्वा शुद्धि सौमनस्य एकाग्र्या इन्द्रिया जया आत्मा दर्शन योग्यत्वानि च संतोषात् अनुत्तमा सुख लाभः काया इंद्रिया सिद्धिः अशुद्धि क्षयात् तपसः स्व अध्यायात् इष्टा देवता संप्रयोगः समाधि सिद्धिः ईश्वर प्रणिधानात् स्थिरा सुखम् आसनम् प्रयत्न शैथिल्या अनंता समापत्तिभ्याम् ततः द्वंद्वा अनभिघातः तस्मिन् सति श्वास प्रश्वासयोः गति विच्छेदः प्राण आयामः सः तु बाह्य आभ्यन्तर स्तंभ वृत्तिः देश काल संख्याभिः परिदृष्टः दीर्घ सूक्ष्मः बाह्य आभ्यन्तर विषय आक्षेपी चतुर्थः ततः क्षीयते प्रकाश आवरणम् धारणासु च योग्यता मनसः स्व विषय असंप्रयोगे चित्त स्वरूप अनुकारः इव इन्द्रियाणां प्रत्याहारः ततः परमा वश्यता इन्द्रियाणां इति पतञ्जलि विरचिते योगा सूत्रे द्वितीयः साधना पादः।